वदतु भगिनि.
शुक्लां प्रतिवर्तं चतुर्भुजं प्रसप्तमध्याये विघ्नोपशान्तये. गुरुर्ब्रह्मा गुरुर्देवो गुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः.
धन्यवादः भगिनि.
नमस्तु परदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा.
धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः. सर्वेभ्यो नमः. अस्माकं वर्गे सर्वेषां स्वागतं. शुभदा भगिनी नमस्कारः. भगिनि
नमस्कारः. महोदय
नमस्कारः. अस्तु, अस्माकं प्रवर्तमानः विषयः तत्र आसीत् तत्र अतः यतः इति. तस्मिन् विषये केवलम् एकः अभ्यासः न कृतमस्ति, न कृतः. तदनन्तरम् अग्रे गत्वा सम्बोधनम् इति एकः अध्यायः अस्ति. तदनन्तरम् अव्ययानि इति पुनः आयाति. किन्तु तस्य अव्ययानि पूर्वम् इति पूर्वं तत्र एकां कथां पठामः इति. तत्र इदानीं सम्भाषणसन्देशः तत् आन्लैन् मध्ये एव प्राप्तुं शक्नुमः. अतः तत्र एकां कथां तत्र पठित्वा अग्रे गच्छामः इति चिन्तनम्. अस्तु तर्हि, गीताञ्जलि भगिनी नमस्कारः. चिन्ता मास्तु भगिनि. अस्तु तर्हि, अतः तत्र पेज् 182 मध्ये तत्र यः अभ्यासः अस्ति तत् तं न कृतवन्तः इति मन्ये. अतः तत् कुर्मः. तत्र उषा भगिनी आरम्भं करोति वा?
अस्तु महोदय. यतोदाहरणं यतः योजयित्वा पठत. सः पञ्चवस्त्राणि धृतवान् यतः तत्र शैत्यम् अस्ति.
हा, तत्र यतः इति वाक्ये भवति चेत् कः नियमः इति किञ्चित् वदति वा भगिनि?
आं महोदय, यतः इत्युक्ते पूर्वं कार्यं भवति, परं कारणं दत्तमस्ति तत्र.
हा, समीचीनं भगिनि. हा, यतः पूर्वं, यतः इति पदात् पूर्वं कार्यं, यतः इति पदात् परं
कारणं.
कारणं समीचीनं भगिनि. हा, इदानीं
कृष्णः गीताम् उपविष्टवान्
उपदिष्टवान्
क्षम्यतां महोदय. यतः अर्जुनः विषण्णः.
हा, समीचीनं. हा, कृष्णः गीताम् उपदिष्टवान् किमर्थम् इत्युक्ते अर्जुनः विषण्णः. अतः तत्र यतः अर्जुनः विषण्णः. समीचीनं भगिनि. अस्तु, नरेश महोदय अग्रे.
महोदय, रोगमुक्तः भवति यतः सः योगम् अनुसरति.
हा, इदानीं तत्र विपरीततया अतः उपयुज्य वदामश्चेत् किं भवति?
आं महोदय, सः योगम् अनुसरति अतः रोगमुक्तः भवति.
हा, समीचीनं. हा, अस्तु महोदय. तत्र यतः अतः इति समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनि. अस्तु
महोदय, अहम् अनन्तरं पठामि.
अस्तु अस्तु भगिनि. अस्तु 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 भगिनि. शोभा भगिनी अग्रे.
आं महोदय, अभ्यासेन मनः गृह्यते यतः तत् दुर्निग्रहं चलम्.
तत्र तत् इत्युक्ते किं?
मनः.
हा, मनः. तत्र तत् इति दृष्ट्वा मनः इति पदस्य लिङ्गं किम्?
मनः अपि नपुंसकलिङ्गे एव भवति तत्र.
हा, मनस् इति सकारान्तपदं.
द्वितीयविभक्तौ अपि मनः एव.
हा, समीचीनं भगिनि. द्वितीयविभक्तौ अपि तत्र
मनः, मनसि, मनांसि.
हा, किन्तु अत्र तु हा किन्तु अत्र तु प्रथमविभक्ति एव अस्ति.
आम् तत् इति प्रथमविभक्ति अस्ति. अस्तु
न न तत् तत् किमर्थम् इत्युक्ते तत्र प्रथमवाक्ये तत्र किम् अस्ति गृह्यते इति क्रियापदम्
अभ्यासेन गृह्यते
अभ्यासेन गृह्यते अभ्यासने तु कर्तृपदं नास्ति मनः गृह्यते
आम् आम् आम्
मनः गृह्यते तत्र कर्मणि रूपं खलु एव भवति तत्र प्रथमविभक्ति एव तत्र यदि कोऽपि वदति अहं मनः गृह्णामि किन्तु किन्तु तत्र मनः गृह्यते इति एव रूपं भवति हा अतः तत्र मनः इति प्रथमविभक्ति किन्तु नपुंसकलिङ्गः अस्ति अतः तत् इति भवति अपि तत्र दुर्निग्रहं चलं किं भवति
तत्र तत् कारणं भवति
कारणं भवति
अभ्यासेन मनः गृह्यते इति कार्यं भवति
कार्यं भवति या तत्र अभ्यासस्य आवश्यकता अस्ति अभ्यासेन विना मनः न गृह्यते अभ्यासेन एव मनः गृह्यते यतोहि अथवा यतः मनः तत् मनः
दुर्निग्रहं चलं
चलं
तत्र तत् मनः दुर्निग्रहं चलं तत्र यतः इति तु
यतः मध्ये
मनः दुर्निग्रहं चलम् अतः
अभ्यासेन
मनः ग्रहणं
तत्र तत्र न न हलन्तपदम् अस्ति मनस् इति अतः मनसः इति तस्य तस्य
षष्टि
मनसः इति मनसः ग्रहणं भवति अभ्यासेन एव अभ्यासेन एव मनसः ग्रहणं भवति
दुर्निग्रहं जलम् इत्युक्ते किम् अस्ति
दुर्निग्रहं तस्य तस्य निग्रहं निग्रहम् इत्युक्ते तस्य कण्ट्रोल् इति निग्रहं तत्र दुर्निग्रहम् इत्युक्ते तस्य निग्रहणं तस्य निग्रहं दुष्करं सुलभतया न भवति सुलभतया तस्य कण्ट्रोल् सुलभं नास्ति सुलभतया न भवति दुष्करम् अस्ति चलं चलं चलम् अस्ति तत्र एकत्र न तिष्ठति तत्र अश्वः अस्ति खलु अश्वः अस्ति खलु एकत्र न तिष्ठति लघुबालकः एकत्र न तिष्ठति खलु अत्र चलं लघुबालकः चलः लघुबालकः चलः अत्र मनः इति नपुंसकलिङ्गे अस्ति अतः मनः चलम् तत्र दुर्निग्रहम् अपि चलं विशेषणं भवति मनः इति पदस्य मनः दुर्निग्रहं चलम् अस्ति अभ्यासेन मनः गृह्यते यतः तत् मनः दुर्निग्रहं चलम् अस्ति इति पूर्णवाक्यम्
तस्य चलं दुर्निग्रहम् इति अपि अस्ति वा
न भगिनि अहं चिन्तयामि तत्र विशेषणद्वयम् इति
अस्तु महोदय
हा तत्र चलम् इति एकत्र न तिष्ठति इति एकम् अन्यत् अस्ति तत्र निग्रहं दुष्करम् अस्ति इति तस्य कण्ट्रोल् इति एकत्र तिष्ठति चेत् अपि तत्
किन्तु चलम् इति चलने अस्ति इति कृत्वा पृष्टवती
चलने तत्र चलने इत्युक्ते तत्र मनः इतः तथा गच्छति खलु अतः तत् एकं तदनन्तरम् एकत्र भवति चेत् अपि तत् तस्य कण्ट्रोल् अस्ति इति न वक्तुं शक्नुमः खलु इति अतः तत्र विशेषणद्वयम् इति अस्तु अग्रे वेदा भगिनि
अहं ते दिव्यं चक्षुः ददामि अनेन स्वचक्षुता मां द्रष्टुं न शक्यसे. कारणमस्ति अनेन स्वचक्षुषा मां द्रष्टुं न शक्यसे कारणम् अहं ते दिव्यं चक्षुः ददामि. तत् कार्यं कारणेन यतः अहं ते दिव्यं चक्षुः ददामि यतः अनेन स्वचक्षुषा मां द्रष्टुं न शक्यसे.
हा अस्तु समीचीनं भगिनि. तत्र दिव्यं चक्षुः इति अस्ति. दिव्यम् इति किं भवति चक्षुः इति पदस्य
विशेषणं
विशेषणं विशेषणं समीचीनं. दिव्यमिति दृष्ट्वा दिव्यमिति दिव्यमिति पदस्य लिङ्गं किं भवति?
दिव्यं चक्षुः नपुंसकलिङ्ग.
हा तत्र ददामि इति अस्ति अतः तत्र प्रायशः किञ्चित् क्लेशः भवति किन्तु समीचीनमेव. चक्षुः इति चक्षुष पदं भवति हलन्तपदं चक्षुः इति. तत्र नपुंसकलिङ्गपदम् इति मन्ये तत्र चक्षुः इति कर्मपदं भवति. ददामि अहं ददामि चक्षुः ददामि. कीदृशचक्षुः ददामि? दिव्यं चक्षुः ददामि. इदानीं तत्र ददामि अस्ति चेत् अन्यः प्रश्नः कः कः
किं ददामि केन ददामि
न न कस्मै ददामि
कस्मै ददामि
कस्मै टु हूम् इति. हा वाट् वाट् एम् ऐ गिविङ्ग् अपि फर् हूम् इति अतः कस्मै. अत्र कस्मै इति ते इति तत्र विभक्ति का
ते इत्युक्ते तुभ्यं
हा मध्यमपुरुषे एकवचन रूपं तत्र त्वम् इति पदस्य चतुर्थी एकवचनरूपम् अस्ति ते अथवा तुभ्यं. समीचीनं भगिनि. हा अतः अहं ते दिव्यं चक्षुः ददामि यतः हा तत्र अनेन इति किमर्थं दत्तमस्ति
तृतीया विभक्ति
किमर्थम् अनेन इति अस्ति
मकारात् पुल्लिङ्गे इदं शब्दस्य अनेन तृतीया विभक्ति अनेन
अनेन अनेन इदं पदस्य तृतीया विभक्ति अस्तु
अनेन स्वचक्षुषा
चक्षुषा इति तृतीया अस्ति
तृतीया अस्ति अनेन स्वचक्षुषा मां द्रष्टुं न शक्यसे मां विभक्ति द्रष्टुं तुमुल् प्रत्यय
हा समीचीनं शक्यसे तत्र मां त्वं न द्रष्टुं न शक्यसे किम् अथवा कं न द्रष्टुं शक्यसे मां द्रष्टुं न शक्यसे केन 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 माध्यमेन स्वचक्षुषा स्वचक्षुषा मां द्रष्टुं न शक्यसे. किन्तु तत्र स्वचक्षुषा इति प्रथमविभक्तिरूपं किं भवति
चक्षुः
चक्षुः तत्र एतत् अथवा इदं चक्षुः इति इदं चक्षुः इति पदस्य तृतीयविभक्ति भवति अनेन अनेन स्वचक्षुषा. अतः तत्र स्वचक्षुषा मां द्रष्टुं न शक्यते अतः
अहं ते दिव्यं चक्षुः
ददामि. हा अन्यत् तत्र एतत् चक्षुः कार्यं न करोति खलु अतः हा नवीनं चक्षुः आवश्यकम् अन्य अथवा अन्यत् चक्षुः आवश्यकं. समीचीनं भगिनि अस्तु. श्रीप्रिया भगिनी नमस्कारः. पेज् 182 मध्ये स्मः. शुभदा भगिनी अग्रे.
आं महोदय. तव वचनं करिष्ये मोहः नष्टः. तव वचनं करिष्ये यतः मोहः नष्टः.
इति अर्जुनस्य वाक्यम्. अर्जुनः भवति मोहः मम मोहः नष्टः इदानीं अतः श्रीकृष्णस्य भगवतः वचनं करिष्ये इति यतः. अस्तु समीचीनं भगिनि. तत्र मोहः मम मोहः अपि तत्र वक्तुं शक्नुमः. मोहः नष्टः तत्र विशेषणविशेषभावः. कीदृशमोहः नष्टः मोहः इति, मम मोहः नष्टः अस्ति इति. समीचीनम्. अस्तु, अग्रे गीताञ्जलि भगिनि.
आं महोदय, अहं ते हितं वक्ष्यामि, त्वं मे प्रियः. अहं ते हितं वक्ष्यामि. वक्ष्यामि तु वच् धातुतः महोदय.
इति सत्यं भगिनि. हा
हा, अहं ते हितं वक्ष्यामि इत्युक्ते तस्य वा महोदय?
ते इत्युक्ते ते इति विभक्ति का तत्र?
षष्टि वा?
न न, उपरि आसीत्. चतुर्थवाक्यं पश्यतु, अहं ते दिव्यं चक्षुः ददामि.
ओ ओ, चतुर्थी महोदय.
चतुर्थी.
तस्मै
तस्मै इति तु प्रथमपुरुषे, एतत्तु मध्यमपुरुषे. त्वम् इति
तुभ्यं,
त्वम् अथवा
तुभ्यं. तुभ्यं, हा तुभ्यं, तुभ्यम्. अस्तु, अहं ते हितं वक्ष्यामि यतः त्वं मे प्रियः. अत्र तु मे इत्युक्ते षष्टि, त्वं मे प्रियः न महोदय? षष्टि वा चतुर्थि वा महोदय?
किं चिन्तनं?
हा, मे प्रिय इत्युक्ते त्वं
मम
प्रिय न, हा तु षष्टि एव न महोदय
इति भवति. हा, इति स्वीकर्तुं शक्नुमः इति मन्ये भगिनि. मम प्रिय,
हा, यतः त्वं मे प्रियः इति. अहं ते हितं वक्ष्यामि यतः त्वं मे प्रियः. त्वं मे प्रियः अतः अहं ते हितं वक्ष्यामि इति.
हा, तत्र मे
इति,
हा तत्र तत्र मे इति, हा तत्र मे इति तत्र कुत्र कुत्र भवति? तत्र मे इति चतुर्थी मध्ये भवति,
षष्टि
अपि तत्र एव. मे इति तत्र मह्यम् अथवा मे, चतुर्थी एकवचने,
षष्टि
मम मे.
ते इति षष्ठी विभक्ति महोदय?
ते इति तत्र षष्ठी एकवचने भवति, चतुर्थी एकवचनम् अपि भवति.
अत्र षष्ठी विभक्ति न वा
तत्र?
योर्स्.
तत् सत्यं, तत् प्रायशः तदपि तत्र अहं चिन्तितवान्, तत्र वक्ष्यामि हितं वक्ष्यामि, तत्र वदनम् अस्तु वदिष्यामि. समीचीनमेव भगिनि. अतः तत्र, हा अतः समीचीनमेव, अतः तत्र ते अपि मे, अत्र षष्टि एव. समीचीनं भगिनि, धन्यवादः. समीचीनम् अस्तु. त्वं मे प्रियः, ते हितं. समीचीनम्. अस्तु अस्तु अस्तु, धन्यवादः. अस्तु, अग्रे श्रीप्रिया भगिनि.
महोदय, एकः प्रश्नः महोदय.
हा,
अहं ते हितं वक्ष्यामि, त्वं मे प्रियः. ते तुभ्यम् अपि, तुभ्यम् अपि च ते, मम अपि च मे.
न भगिनि, तत्र अस्तु चतुर्थी मध्ये तत्र तुभ्यम् अथवा ते, षष्ठी मध्ये तव अथवा ते.
आं महोदय, क्षम्यतां, तव ते मम मे. कथं जानीमः तव
कदा तव, कदा तव,
अपि च
तत्र सन्दर्भं दृष्ट्वा, तत्र मे प्रियः इति अस्ति, अतः किं ददाति किमपि नास्ति इति कृत्वा तत्र षष्टि इति. अत्र मे प्रियः, तत्र तु षष्टि इति सुलभम् अस्ति, किन्तु तत्र मम मनसि क्लेशः आसीत्, तत्र ते हितं वक्ष्यामि, अहं मम मनसि वक्ष्यामि इति, तत्र किमपि ददामि अथवा हितं वदामि इति, तत्र धानस्य किमपि मम मनसि आसीत्, अतः अहं चतुर्थी इति चिन्तितवान्. किन्तु धाने चतुर्थी इति भवति खलु, यथा तत्र चतुर्थवाक्ये आसीत् खलु ददामि इति.
आं महोदय.
तत्र तु ते इति यदस्ति तत्तु चतुर्थी विभक्ति एव.
यदि अहं ते अहं तव हितं वक्ष्यामि त्वं मम प्रियः इति अपि
इति एव अस्य वाक्यस्य अर्थः.
लेखनसमये
यदि तत् लिखति तत् समीचीनमेव.
अस्तु महोदय.
सः एव अर्थः, अहं तव हितं वक्ष्यामि यतः त्वं मम प्रियः अस्ति इति. सत्यं भगिनि, समीचीनम्. अस्तु अग्रे श्रीप्रिया भगिनि.
ऋषयः ब्रह्मनिर्वाणं लभन्ते ते क्षीणकल्मषाः. ऋषयः ब्रह्मनिर्वाणं लभन्ते यतः ते क्षीणकल्मषाः.
ते क्षीण कल्मषः, तत्र ते इति अर्थः भिन्नः इदानीम्. अस्तु,
समीचीनरूपे अस्ति खलु.
सत्यं भगिनि, ते क्षीणकल्मषाः सन्ति इति. सन्ति इति. लक्ष्मी भगिनी इदानीं वक्तुं शक्नोति वा?
त्वं शोचितुं न अर्हसि, अयम् आत्मा अच्छेद्यः. त्वं शोचितुं न अर्हसि यतः अयम् आत्मा अच्छेद्यः. अयम् आत्मा अच्छेद्यः अतः त्वं शोचितुं न अर्हसि.
न शोचितुं न अर्हसि, समीचीनं भगिनि. तत्र आत्मा इति अयम् आत्मा, आत्मन् इति पुल्लिङ्ग, आत्मा इति पुल्लिङ्गपदम् अस्ति. आत्मन् इति, आत्मन् इति नकारान्तपदम् अस्ति, अग्रे द्रक्ष्यामः. किन्तु अयम् आत्मा इति अच्छेद्यः, तत्र अच्छेद्यः दृष्ट्वा विशेषणम् अस्ति खलु. अच्छेद्यः तत्तु अजन्तपदम्, अकारान्तदेवपदम् इव अस्ति खलु. अतः तत्र पुल्लिङ्गपदम् इति ज्ञातुं शक्नुमः. अपि विशेषणम् अस्ति आत्मा इति पदस्य, अतः आत्मा अपि पुल्लिङ्गपदम् इति ज्ञातुं शक्नुमः. अच्छेद्यः तत्र तस्य किं तत् अनन्तम् अस्ति तत्र आत्मा इति, तस्य मरणं किमपि तत्र नास्ति खलु. तत्र न शक्यते, तत्र शस्त्रं वा अस्त्रं वा तस्य छेदनं न कर्तुं शक्यते इति. अस्तु, समीचीनम्. अस्तु अग्रे गच्छामः. नरेश महोदय,
क्षीणकल्मषः इत्युक्ते अर्थः कः?
तत्र कल्मषः इति,
कल्मषः इत्युक्ते,
कल्मषः इत्युक्ते
कपटबुद्धिः वा?
तत्र मलः, मलम् इति वक्तुं, तत्र क्षीण, क्षीण इत्युक्ते तत्र यत् प्रायशः न्यूनमेव अस्ति, किन्तु तत् यत् न्यूनमस्ति तदपि दिने दिने यदस्ति तस्य अधिकं न्यूना भवति इति. तत्र क्षीण, तस्य क्षीणः इति तत्र कथं वक्तव्यं, तत्र
क्षयति वा महोदय?
क्षयति, तस्य क्षयणं. धन्यवादः. तत्र क्षयः अथवा क्षयणम् इति तद् भवति. अतः तत्र तस्य परिमाणं दिने गच्छता कालेन तस्य परिमाणं शून्यं, शून्यवत् गच्छति इति. अतः तत्र क्षीणकल्मषः इत्युक्ते प्रायशः तत्र क्षीणकल्मषः, यस्य कल्मषः क्षीणा, क्षीणा क्षीणा भवति इति, अथवा तत्र विग्रहवाक्यं चिन्तनीयम् अस्ति, किन्तु अर्थः तादृशः अस्ति भगिनि. अस्तु, नरेश महोदय अग्रे पठति वा?
श्रीकृष्णस्य रणनीतेः विवरणम् अत्र अस्ति. यतः इति उपयुज्य योग्यं वाक्यं रचयत. श्रीकृष्णः मायया सूर्यम् आच्छादितवान् यतः जयद्रथस्य वधः कर्तव्यः.
तत्र श्रीकृष्णः मायया सूर्यम् आच्छादितवान् यतः जयद्रथस्य वधः कर्तव्यः आसीत्। तत्र पूर्वस्मिन् दिने तत्र अभिमन्योः वधम् अभवत् खलु,
अभवत्।
अतः तत्र अग्रिमे दिने तत्र अर्जुनः प्रतिज्ञां करोति तत्र जयद्रथस्य वधम् अद्य करिष्यामि इति। अतः तत्र श्रीकृष्णः मायया सूर्यम् आच्छादितवान्। अस्तु, समीचीनम्। अस्तु, अग्रे वेदा भगिनी।
महोदय, श्रीकृष्णः घटोत्कचं कर्णस्य समीपं प्रेषितवान् यतः
द्वितीयवाक्यमेव
घटोत्कचं कर्णस्य समीपं प्रेषितवान् यतः अर्जुनः शक्त्यायुधात् रक्षणीयः।
तत्र कर्णस्य समीपे शक्त्यायुधम् अस्ति खलु, इन्द्रेण इन्द्रदेवेन दत्तं शक्त्यायुधम् अस्ति, एकवारमेव तस्य प्रयोगः कर्तुं शक्यते इति इन्द्रस्य वचनं भवति। कर्णः चिन्तयति एतम् अर्जुनस्य कृते तस्य प्रयोगं करिष्यामि इति, किन्तु श्रीकृष्णः घटोत्कचं कर्णस्य समीपं प्रेषितवान् यतः अर्जुनः शक्त्यायुधात् रक्षणीयः। तस्य रक्षणं शक्त्यायुधात् तस्य रक्षणम् आवश्यकम् इति चिन्तयित्वा एतत् श्रीकृष्णः कृतवान्। अस्तु, शोभा भगिनी अग्रे।
लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान् यतः भीमस्य रक्षणं कार्यम्। महोदय, तत्र कार्यम् इति कथं भवति?
तत्र करणीयम् इति अर्थः,
तद्रूपमपि
करणीयम् इति एव अर्थः, इति एव तत्र तत्र कर्तव्यं करणीयम् इति तत्र अनेकाः प्रत्ययाः सन्ति, तत्र कार्यम् इति तद् अपि कर्तव्यम् इति अर्थे।
अस्तु, किन्तु कार्यम् इति अन्यत् अर्थे अपि
अन्यः अर्थः अपि अस्ति अत्र एतत् भवेत्
कार्यं
करणीयम् इति एव अर्थः। तत्र लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान् यतः भीमस्य रक्षणं
कार्यम्।
तत्र लोहभीमं यत् येन सह दुर्योधनः तत्र गदाभ्यासं कुर्वन् आसीत्, लोहभीमं सर्वे जानन्ति खलु,
धृतराष्ट्रः तस्य भीमस्य वधं कर्तुं
आलिङ्गनसमये तस्य वधं कर्तुं तत्र तस्य महान् कोपः भवति खलु,
अतः कृष्णः एतत् उपायं कृतवान्।
तत्र लोहभीमम् इति तत्र येन सह दुर्योधनः तत्र गदाभ्यासं कुर्वन् आसीत् तं लोहभीमं धृतराष्ट्रस्य पृष्ठतः पुरतः स्थापितवान्। तस्य तदनन्तरम् आलिङ्गनस्य अनन्तरं तत्र एव भीमः तत्र समीपं गच्छति। अस्तु, अग्रे उषा भगिनि।
आं महोदय, बहु किमपि ध्वनि आयाति,
न जानामि भगिनि तत्र कुतः इति।
अस्तु,
उषा भगिनि
एकनिमिषं महोदय, एकनिमिषम्।
अस्तु,
अत्र
अस्तु, अतः तत्र लक्ष्मी भगिनी पठति,
महोदय पठामि।
अस्तु, भगिनी पठतु।
श्रीकृष्णः अश्वत्थामा हतः
इति वाचितवान् यतः द्रोणाचार्यः मारणीयः श्रीकृष्णः अश्वत्थामा हतः तप्रत्यय इति वाचितवान् तवतु प्रत्यय वाचितवान् यतः द्रोणाचार्यः प्रथमविभक्ति मारणीयः अपि निजन्तरूपं महोदय
तत्र मारणीयः मारणीयः निजन्तरूपमपि तत्र अनियर् इति कर्तव्यः करणीयः इति तत् अग्रिमे भागे तद् आयति गीतासोपने मारणीयः आसीत् वाचितवान् सः साक्षात् न उक्तवान् किन्तु सः कारितवान् युधिष्ठिरः उक्तवान् खलु
अश्वत्थामा इति अश्वत्थामन् इति नपुंसकलिङ्गः
सत्यं न पुल्लिङ्गपदं पुल्लिङ्गपदं नकारान्तपदं राजन् अश्वत्थामन् इति सत्यं भगिनि अश्वत्थामा इति प्रथमविभक्तिरूपं भवति समीचीनं अश्वत्थामा हतः इति सः वाचितवान् यतः द्रोणाचार्यः मारणीयः आसीत् समीचीनम् अस्तु अग्रे शुभदा भगिनि
महोदय पाण्डवान् अन्यत्रं नयति श्रीकृष्णः पाण्डवान् अन्यत्र नयति यतः द्रोणपुत्रस्य कुटिलताम् ऊहितवान्
तत्र श्रीकृष्णः पाण्डवान् अन्यत्र नयति यतः द्रोणपुत्रस्य अश्वत्थामनः कुटिलताम् ऊहितवान् इति समीचीनम् अस्तु तत्र अस्तु तर्हि तत्र यतः अतः इति तस्य अभ्यासः जातः इदानीं प्रश्नः अस्ति वा अत्र प्रायशः सर्वं अत्र सर्वं सुलभमेव अस्ति इति मन्ये तत्र क्लेशस्य
विषये
हा वदतु भगिनि
महोदय कुटिलताम् इति पदम् इति कर्मपदं
कुटिलता इति कुटिलः तस्य भावः कुटिलता
स्त्रीलिङ्गं पदं महोदय
सत्यं भगिनि तत्र सुन्दरता सुन्दरता कुटिलता अन्यत् रूपम् अस्ति प्रायशः अस्ति तदपि प्रसिद्धः इति मन्ये तत्र सुन्दरः इति सुन्दरत्वम् इति एकं रूपं सुन्दरता इति एकं रूपम् अन्यत् रूपं किम् अस्ति सौन्दर्यं हा तत्र कुटिलम् इति तस्य सौन्दर्यम् इति रूपं किं भवति
कौटिल्यं
हा कौटिल्यचाणक्यः इति जानीमः खलु तत्र कुटिलः कुटिलताम् इति कर्मपदं श्रीकृष्णः द्रोणपुत्रस्य कुटिलताम् ऊहितवान् तत्र भावः कुटिलः इति तस्य भावः कुटिल इति गुणस्य भावः कुटिलता कौटिल्यं कुटिलत्वम् इति
धन्यवादः
अस्तु इदानीम् अग्रे गच्छामः तत्र तत्र सरल विषय एव इदानीम् अग्रे तत्र सम्बोधनमिति किन्तु एकवारं पश्यामः तत्र प्रायशः सर्वदा एतस्य विषये चर्चा न भवति तत्र सम्बोधनमिति तत्र एतत् प्रायशः तत्र तत् किं तत्र सप्तविभक्तयः सन्ति किन्तु सम्बोधनमिति विभक्ति अन्यतमविभक्ति इति न स्वीकुर्वन्ति इति मन्ये तत्र अष्टमः विभक्तिः इति नास्ति तत्र प्रथमविभक्तौ एव अन्तर्भूतः इति मन्ये किन्तु तस्य रूपं कीदृशम् इति पश्यामः अस्तु तर्हि तत्र श्रीप्रिया भगिनी आरम्भं करोति वा
आं महोदय, महोदय एकः प्रश्नः अस्ति. एतत् अष्टमवाक्ये अयम् आत्मा अच्छेद्यः अच्छेद्यः विशेषणम् इति वदामः खलु महोदय?
सत्यं भगिनि.
तत्र विशेषण विशेषणपदं विशेष्यस्य पर विशेषात् परमपि आगन्तव्यं वा?
अस्तु अस्तु भगिनि, तत्र 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 किं तत्र अस्तु एतत् स्वीकर्तुं शक्नुमः. तत्र प्रायशः तत्र विशेषणं कुत्र भवति, विशेषं कुत्र भवति इति, तत्र किं भवति तत्र चिन्तयतु. तत्र अन्यत् उदाहरणं स्वीकरोतु, तत्र मोहः नष्टः इति अस्ति. तत्र यत्र वयं तस्य विषये किमपि अथवा कस्य विषये किमपि वक्तुम् इच्छामः तत्र अस्तु अन्यत् उदाहरणं स्वीकुर्मः. तत् अत्र कोऽपि वदति एषः सुरेशः, एषः सुरेशः उत्तमः. तत्र किं रूपं किं भवति? एषः सुरेशः उत्तमः अस्ति इति. अस्ति इति साधारणतया न वदामः, एषः सुरेशः उत्तमः. तत्र उत्तमः इति विशेषणम् अस्ति, किन्तु सुरेशपदात् परमस्ति. किन्तु यत्र अन्यत्र वयं वदामः एषः उत्तमः सुरेशस्य, एतम उत्तमस्य सुरेशस्य पत्नी एषा अस्ति इति, तत्र विशेषणं पूर्वं भवति. किन्तु तत्र स्थानस्य महत्त्वं नास्ति इति मन्ये. तत्र नियमः तत्र एतदेव भवितुम् अर्हति इति तत्र प्रायशः नियमः नास्ति. यद्यपि तत्र वाक्ये साधारणतया विशेषणं पूर्वमेव स्थापयामः, किन्तु यथा वयं पश्यामः तत्र एष यत्र किमपि भवति, तत्र किमपि नष्टः भवति, तत्र पिष्टघटः इति अभ्यासपुस्तके अथवा पञ्चतन्त्रकथायां भवति खलु, पिष्टः घटः नष्टः इति, तत्र घटः नष्टः इति एव वदामः. तदनन्तरं नष्टः घटः इति किमपि विवरणमध्ये तादृशरूपं भवति. अपि अत्र प्रायशः तत्र भगवद्गीतायाः श्लोकाः सन्ति इति कृत्वा तत्र वाक्यस्य नियमाः तत्र नियमानां प्रभावः नास्ति खलु, पद्यम् अस्ति इति कृत्वा तत्र अन्वयं वयमेव तत्र अस्माकं कार्यं भवति. किन्तु तत्र इदानीं समीचीनं भगिनि, तत्र अच्छेद्यः तत्र आत्मा अच्छेद्यः अस्ति इति तत्र वक्तुम् इच्छन्ति, अतः अच्छेद्यः इति परं भवति.
अत्र तु का प्रत्ययः तव्यतनीयरेव तादृशं भवति खलु वा महोदय? नष्टः इति का प्रत्ययः अस्ति, अच्छेद्यः अपि एव वा
तादृश? तत्र आच्छेद्यः तत्र न छिद्यति, तादृश एव अस्ति इति मन्ये भगिनि. द्रष्टव्यमस्ति, न स्मरामि. किन्तु यत्र यत्र किमपि भवति तत्र सः हतः अथवा सः गतः, अत्र तत्र विशेषणं परं भवति तावत्.
धन्यवादः.
अस्तु अग्रे भवती एव अग्रे पठतु भगिनि.
हे कृष्ण हे माधव पश्यत जानीत च सम्बोधनम्, अम्ब अत्र पश्य राजन् शृणु पाञ्चालि किमहं गच्छामि. अवधेयमपि पठामि वा?
पठतु पठतु.
अवधेयं सम्बोधनरूपस्य प्रयोगः सूचनार्थं भवति. सामान्यतः एतदर्थम् इति चिह्नस्य अल्पविरामस्य वा उपयोगः भवति यथा पुत्र सखी पुत्री पुत्र सम्बोधनरूपात् पूर्वं भोः हे रे अये अयि इत्यादीनि अपि कदाचित् प्रयुज्यन्ते यथा हे मित्र सामान्यसम्बोधनानि पुरुषम् उद्दिश्य मित्र महिलाम् उद्दिश्य सखी भगिनी सामान्यं भोः अयि भोः
अस्तु भगिनि समीचीनम् अत्र तत्र सम्बोधनस्य रूपाणि दत्तानि सन्ति तत्र अम्ब राजन् पाञ्चाली इति तत्र पाञ्चाली इति तत्र प्रथमविभक्तिरूपं किं भवति पाञ्चाली इति
पाञ्चाली नदीवत् भवति
नदीवत् भवति तत्र एतद् रूपं सम्बोधनरूपमपि प्रथमविभक्तिरूपं समानं वा
ह्रस्वं भवति
हा इकारस्य ह्रस्वं अतः तत्र हा पाञ्चाली इति अस्ति किन्तु सम्बोधनसमये पाञ्चाली तत्र सर्वदा तत्र स्तोत्रेषु तत्र वेदा भगिनी उक्तवती तत्र सरस्वती नमस्तुभ्यम् इति तत्र सरस्वती इति ह्रस्व इकारः सरस्वती इति सम्बोधनरूपं भवति तत्र तत्र ह्रस्व इकारः भवति हा सम्बोधनसमये ह्रस्व इकारः तत्र एतत् सर्वं दृष्टवन्तः एव इति मन्ये तत्र बोर् हे रे अये अयि इति सर्वं भवति किन्तु तत्र केवलम् एकवारं रूपं रूपाणि पश्यामः इति तावदेव इच्छा अस्तु अग्रे गीताञ्जलि भगिनी पठति वा अग्रे
आं महोदय महोदय एक प्रश्न महोदय अस्माकं वर्गे महोदय वयं किमपि वयं कदापि भोः हे रे अयि
किमर्थम् इति इदानीं
महोदय
इदानीम् अग्रे पठतु भगिनि तत्र
अस्तु आधारसूचनार्थम् इति अस्तु आदरसूचनार्थं नामसूचकपदेन सह पुंलिङ्गे प्रायः वर्य महोदय
महाशय महाभाग शब्दाः योज्यन्ते तत्र वर्यः वर्यः तत्र कोऽपि अस्ति तस्य तत्र जनार्दन हेग्डे महोदय अस्ति चेत् जनार्दन वर्यः अथवा जनार्दन महोदय अथवा जनार्दन महाशय अथवा जनार्दन महाभाग इति आदरं सूचितम् अतः तत्र वयं सर्वदा महोदय भगिनी इति एव वयं वदामः सत्यं भगिनि सत्यं सत्यं
अस्तु यथा राजेश्वर्य
राजेशवर्य
सुधीरवर्य राकेशमहाशय आशुतोषमहाभाग स्त्रीलिङ्गे प्रायः पठामि वा महोदय स्त्रीलिङ्गे प्रायः वर्या महोदया भगिनी शब्दाः योजयन्ते न योजन्ते योज्यन्ते यथा लतावर्ये रेखामहोदये लक्ष्मी भगिनी
तत्र किं भवति तत्र वर्यः इति महोदयः इति प्रथमविभक्तिरूपम् अस्ति किन्तु सम्बोधने तत्र विसर्गः अपगच्छति अतः तत्र वर्य वर्य महाभाग महाशय अपि स्त्रीलिङ्गे किं भवति तत्र वर्या वर्या एव भवति वर्या किं भवति वर्ये इति भवति वर्या वर्ये महोदया महोदये इति भवति तदनन्तरं भगिनी इति दीर्घ इकारः ह्रस्व इकारः भवति भगिनी इति सत्यं भगिनि सत्यं इदानीं तत्र पश्यामः तत्र अत्र अभ्यासं कुर्मः तत्र वेदा भगिनी किं भवति
वेदा तु वेदे भगिनि
वेदामहोदये इति भवति
वेदामहोदये
तस्य अभ्यासः कर्तुं
महोदय लता तु लते भवति वेदा वेदापि वेदे वर्ये इति न समीचीनं महोदय वेदे वर्ये न
हा तत्र लथावर्य तत्र समस्तपदं भगिनि अतः
अतः तु किन्तु यदि
समस्तपदं चेत् हा तत्र तत्र तादृशरूपम् अस्ति चेत् प्रत्येकस्य पदस्य यथा विभक्ति कुर्मः तथापि सम्बोधनरूपं भवति खलु
वेदेपि अपि समीचीनं वर्ये अपि समीचीनं
हा किन्तु तत्र प्रायशः वेदे इति वदामश्चेत् क्षम्यतां वेदा भगिनी हा भवत्या नाम उपयुज्य अद्य तत्र
वेदावर्ये
इति समीचीनं हा इति साधु अस्ति तत् आदरं सूचयति मित्रः अथवा भगिनी कोऽपि अस्ति चेत् तत्र प्रायशः वेदे इति तत्र इति रूपं
न महोदय लक्ष्मी भगिनी सम्बोधने लक्ष्मी ह्रस्व इकार अस्ति परन्तु अत्र लक्ष्मी दीर्घ इकार अस्ति
सत्यं सत्यं भगिनी किन्तु केवलं तत्र केवलं लक्ष्मी इति पदम् अस्ति चेत् तस्य सम्बोधनं भवति लक्ष्मी इति तत्र ह्रस्व इकारः किन्तु लक्ष्मी भगिनी समस्तपदम् अतः तत्र केवलं भगिनी इति
अहं चिन्तयामि तदेव वेदा भगिनी एव उक्तं साधु
सत्यं सत्यं हा वेदा भगिनी अस्ति चेत् वेदा भगिनी एव अथवा वेदावर्या अस्ति चेत् वेदावर्ये किन्तु केवलं वेदा अस्ति चेत् तत्र वेदे अस्तु गीताञ्जलि भगिनी अग्रे
नाम निर्देशं विना पुंलिङ्गे मान्य आर्य श्रीमन् इत्यादीनि प्रयुज्यन्ते
तत्र अत्र नाम न आवश्यकम् अस्ति नाम तत्र तस्य उपयोगं न कुर्मः केवलं मान्य अथवा आर्य अथवा श्रीमन् इति
श्रीमन् श्रीमती किं अत्र नास्ति श्रीमन् भगिनी इति अस्तु
मान्ये आर्ये अपि भगिनी इति तत्र प्रायशः तत्र तत्र श्रीमन् अपि तत्र भगिनी इति अस्तु इति रूपाणि सन्ति
सन्ति
इदानीम् उत्तरं प्राप्तं वा भगिनी किमर्थं वयं
एकं तु इन्फार्मल् इत्युक्ते मित्रेण सह
मित्रैः सह तादृशरूपं भवति
किन्तु यदि आदरसहित वयं वक्तामश्चेत् तदनन्तरं
अत्र तत्र महोदय भगिनी इति महाशये इति एव भवति
एकं वयम् एकं सम्भाषणं पठितवन्तः महोदय अभ्यासपुस्तके एकं ग्राहकः अस्ति अपि काफी शाप् गच्छति तस्य तत्र किमपि तत्र यत् कार्यं करोति ते भोः इति वदति इति अहं मन्ये महोदय
न स्मरामि तत्र अभ्यासपुस्तके अस्ति अस्तु भगिनि
महोदय अभ्यासपुस्तके एकं आरम्भतः एव एकं
सम्भाषणं किन्तु तत्र शिबिरं तत्र संस्कृतभारत्याः शिबिराणि यानि सन्ति अथवा तत्र सप्ताहान्तक वर्कशाप् किमपि यद्यपि तत्र भवति तत्र सर्वदा तत्र महोदया भगिनी इति एव सर्वे वदन्ति तत्र अतः तत्र भोः इति केवलं तत्र प्रदर्शनार्थं वदन्ति किन्तु सम्भाषणसमये सर्वे तु महोदये अथवा भगिनी इति एव वदन्ति
पुटसङ्ख्या तु त्रयोदश एव प्रथमसम्भाषण
ओ अत्र अभ्यासपुस्तके वा अस्तु अस्तु
वितारकः ग्राहकः मध्ये
अस्तु भगिनि
धन्यवादः महोदय
अस्तु अस्तु भगिनि अस्तु ललिता भगिनी नमस्कारः केवलं शृणोति वा अद्य
नमस्कारः नमस्कारः महोदय अहं केवलं शृणोमि
अस्तु अस्तु चिन्ता मास्तु भगिनि अस्तु भगिनि अस्तु
पाकगृहे अस्ति अस्मि
अस्तु अस्तु भगिनि अस्तु 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 अग्रिमपुटे तत्र शोभा भगिनी अग्रे तत्र केवलम् एकवारं तत्र रूपाणि पठन्ति वा भगिनि
आं महोदय सम्बोधनरूपाणि पुत्रः पुत्र पुत्रौ पुत्राः मान्या मान्ये मान्ये मान्याः अम्बा अम्ब अम्बे अम्बाः
तत्र अम्बा इति किञ्चित् भिन्नम् अस्ति भगिनि तत्र अम्बा इति आकारान्तस्त्रीलिङ्गपदम् अस्ति किन्तु मान्या इति तस्य सम्बोधनम् अस्ति मान्ये
आम् तत्र अम्बे इति न भवति तत्र यकारः आगच्छति इति कृत्वा वा महोदय मान्या इत्यस्मिन् तत्र
न न न तत्र सर्वत्र तत्र आकारः कुत्रापि तत्र लतालते लतालते अस्ति अतः तत्र यकारस्य नास्ति किन्तु तत्र अम्बा इति तत्र विशेषपदम् अस्ति किमर्थम् इति न जानामि किन्तु तत्र अम्बा इति विशेषपदम् इति तत् जानामि
तत्र माता इति अपि भिन्नः अस्ति विकारान्त इति अस्ति इति कृत्वा वा न वा न जानामि
किं किं
माता इति अपि मातः
माता तु ऋकारान्तपदं
ऋकारान्त अतः भिन्नरूपम् अस्ति वा
हा माता इति अधोभागे अस्ति हा मातः इति अस्ति अधोभागे अस्ति
आं महोदय
किन्तु अम्बा तु आकारान्तपदमेव अस्ति आकारान्तस्त्रीलिङ्गपदम् दीर्घ
आकारान्त
हा दीर्घ आकारान्तपदं लता इव किन्तु तत्र
एकारः न भवति
हा तत्र किञ्चित् हा भिन्नः अस्ति
एकवचने अम्बा अम्ब अम्बे अम्बाः लक्ष्मीः लक्ष्मी लक्ष्म्यौ लक्ष्म्यः गौरी गौरी गौर्यौ गौर्यः पिता पितः पितरौ पितरः माता मातः मातरौ मातरः गुरुः गुरो गुरु गुरवः मित्रं मित्र मित्रे मित्राणि मुनिः मुने मुनी मुनयः मन्त्री मन्त्रिन् मन्त्रिणौ मन्त्रिणः राजा राजन् राजानौ राजानः श्रीमान् श्रीमन् श्रीमन्तौ श्रीमन्तः
अस्तु समीचीनं भगिनि धन्यवादः
तत्र कानिचन पदानि महोदय प्रातिपदिकमेव आगच्छति किल
सत्यं सत्यं
राजन् इति श्रीमन् मन्त्रिन्
राजन्
समीचीनं समीचीनं तत्र केचन स्थलेषु तत्र तत्र केचन स्थले तत्र केचन न कस्मिंश्चित् स्थले तत्र प्रातिपदिकम् अस्ति अपि तत्र द्विवचने बहुवचने कीदृशरूपम्
एकवचनरूपमेव
न न प्रथमविभक्तिरूपम् इति वक्तुं
श्रीमन् इति भवान् इति भवति भवान् भवन्तौ भवन्तः श्रीमन् श्रीमन्तौ श्रीमन्तः
अपि तत्र किन्तु लता पश्यतु लता लते लताः मान्ये तत्र केवलं मान्या इति भवति प्रथमविभक्तौ किन्तु अत्र सम्बोधने मान्ये इति अस्ति
महोदय यत्र यत्र उकार अस्ति तत्र ओकार भवति, इकार अस्ति चेत् एकार भवति. गुरुः फार् एक्साम्पल् गुरुः गुरो, मुनिः मुने,
हरिः हरे भवति.
हरिः हरे भवति. हा समीचीनं, हा समीचीनं. हा किन्तु तत्र परिवर्तनं कुत्र भवति इत्युक्ते केवलम् एकवचने, द्विवचने बहुवचने प्रथमविभक्तिरूपम् एव भवति. अतः तत्र सम्बोधनम् इति अन्यत् अन्या विभक्ति इति न स्वीकुर्वन्ति इति मन्ये. तत्र अष्टमविभक्तिः इति किमपि नास्ति इति. यद्यपि तत्र विभक्ति कोष्टके तत्र सम्बोधनम् इति एकं रूपमपि दत्तमस्ति, किन्तु तत् प्रत्येकविभक्ति इति तत्र तस्य स्वीकरणं नास्ति इति मन्ये. अस्तु तर्हि तत्र अभ्यासः अस्ति, तदपि किञ्चित् कुर्मः. तत्र प्रायशः मिलित्वा एव कर्तुं शक्नुमः इति मन्ये तत्र. अस्तु तत्र कुत्र अस्तु अस्तु एतत् किमस्ति भगवद्गीतायाम् एतानि सम्बोधनपदानि कुत्र सन्ति इति अवलोकयत. अस्तु हा तत् प्रायशः सर्वे गृहपाठरूपेण कुर्वन्तु तत्र कुत्र कुत्र भवति इति. किन्तु तस्य अनन्तरं तत्र एतेषां सम्बोधनरूपाणि रिक्तस्थानानि लिखत इति.
महोदय मान्या इति मान्या इत्युक्ते रिस्पेक्टेड् लेडि वा?
हा सत्यं.
हा
तत्र तत्र वर्या तत्र दत्तमस्ति खलु भगिनि पूर्वस्मिन् पुटे तत्र मान्य आर्य श्रीमन् मान्ये. हा तत्र मान्ये इति स्थाने तत्र न तत्र किं लक्ष्मी मान्ये इति न वदामः, केवलं मान्ये इति वदामः.
मान्य इति प्रातिपदिकम् अस्ति भवति
अकारान्त. हा हा लताशब्दवत् लताशब्दवत् साधारणलताशब्दवत्. अत्र किमर्थं स्वीकृतं चेत् तत्र पूर्वस्मिन् पुटे तस्य रूपं दत्तम् अस्ति खलु अतः मान्ये इति. तत्र आर्या मान्या साधारण आकारान्तपदं स्त्रीलिङ्गपदं.
तस्य अर्थः तु रिस्पेक्टेड् लेडी
रिस्पेक्टेड् इति. हा सत्यं. अस्तु अतः तत्र एतत् प्रायः मिलित्वा एव कुर्मः. तत्र ऋषिकेशः
महोदय क्षम्यता महोदय एकम् अन्यप्रश्नः अस्ति. पुंलिङ्गे पूर्वस्मिन् पुटे इति दत्तं यथा नामसहित कुर्मश्चेत् यथा राजेशवर्य राजेश तु प्रातिपदिकस्य रूपं न महोदय?
हा किन्तु भगिनी तत्र समस्तपदं कुर्मश्चेत् तत्र अन्तिमपदस्य एव विभक्तिरूपं भवति, अन्तिमपदस्य अत्र सम्बोधनं भवति.
किन्तु यदि अश्वत्थामन् इति अस्ति कथं वदामि महोदय?
अश्वत्थामा इति वा
अश्वत्थामन् वा अश्वत्थामा वा?
हा तत्र एतत्तु अश्वत्थामन् इति एतत्तु किं हलन्तपदम् अस्ति खलु?
हा हलन्तपदम् अस्ति चेत् किं कुर्मः महोदय?
भवती वदतु किं कुर्मः. अहं न स्मरामि भगिनि. तत्र प्रायशः आत्मा आत्मा इति एव भवति इति मन्ये तत्र. हा तत्र आत्मा इति नरेश महोदय स्मरति वा? आत्मा इति आत्मन् आत्मा इति भवति इति मन्ये अश्वत्थामा अश्वत्
हे आत्मन् राजन्
हे अश्वत्थामन् वा? अस्तु धन्यवादः धन्यवादः. अस्तु
किं महोदय?
हे अश्वत्थामन् इति.
ओ सो अत्र अश्वत्थामन् वर्य इति भी समीचीनं?
न न न न तत् न भगिनि तत्र भवती एव पठितवती खलु तत्र यत्र यत्र वर्य इति योजनं भवति तत्र पूर्वभागस्य सम्बोधनं न कुर्मः. पश्यतु तत्र राजेश महोदय इति अस्ति इति चिन्तयतु. एतत् पुस्तकं तस्य पुस्तकम् अस्ति, तत्र किं वदामः? राजेश महोदयस्य पुस्तकम् इति एव वदामः खलु, न तु राजेशस्य महोदयस्य पुस्तकम् इति न वदामः. अतः तत्र अतः केवलम् अन्तिमभागः महोदयः इति अस्ति, तत्र समस्तपदम् इति स्वीकृत्य महोदय इति भागस्य एव विभक्ति भवति. अत्रापि यदि केवलं तत्र राजेश इति वदामः तत्र राजेश इति भवति, किन्तु राजेशवर्यः अस्ति चेत् तत्र राजेशवर्य इति भवति. तदपि तत्र अश्वत्थामवर्य अश्वत्थामवर्य इति अश्वत्थामवर्य इति तत्र योगिवर्य योगिवर्य कदापि न श्रुतं, किन्तु अस्तु तत्र योगिवर्य अथवा राजेशवर्य सुधीरवर्य.
अस्तु महोदय, धन्यवादः.
अतः तत्र केवलम् अन्तिमभागस्य सम्बोधनं वा विभक्ति वा इति भवति. अस्तु, तत्र इक्ष्वाकुः इति तत्र सम्बोधनं किम्? युधामन्युः, तत्र युधा
मन्यो
इक्ष्वाकुः किम् उक्तवन्तः? इक्ष्वाको इक्ष्वाको अस्तु. युधामन्युः युधामन्यो कुन्ती इति कुन्ती हे कुन्ती ह्रस्वैकारः. कर्ता इति कर्तृ इति अस्ति, पितृ पितः भवति, कर्तः इति भवति कर्तः. गुडाकेशः गुडाकेश इदानीं योगी इति अस्ति, तत्र योगिन् इति हे योगिन् इति ज्ञातवन्तः इदानीम्. अस्तु, सव्यसाची तदपि अहं न जानामि किमर्थम् अत्र तत्र प्रायशः राजन् इति दृष्ट्वा तादृशरूपं
वक्तव्यं.
सुभद्रा सव्यसाचिन् तु अर्जुनस्य नाम अस्ति.
सुभद्रे
सुभद्रे भगवान्
भगवन्
हे भगवन् दाता ऋकारन्त ऋकारन्त ऋकारन्तपदं ऋकारन्तपदं महाबाहुः महाबाहो इति. अस्तु, समीचीनम्. अस्तु, इदानीं तत्र अहं चिन्तितवान् तत्र कथां पठामः इति. किं चिन्तनं तत्र सम्भाषणसन्देशस्य कथां पठामः वा अथवा पठामः? अस्तु 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 ओके अस्तु अस्तु तदेव कुर्मः. अतः तत्र पुटसङ्ख्या किम् आसीत् तत्र? सुयोग्यः पुत्रः अस्तु इति. अस्तु तर्हि तत्र एतत् सम्भाषणसन्देशः तत्र ईमेल् मध्ये भगिनी तत्र फैल् पेज् 9 इति
लिङ्क् अस्ति
अस्तु तत्र. अस्तु, कः तत्र लक्ष्मी भगिनी आरम्भं करोति वा?
अस्तु महोदय. कदाचित् तिस्रः महिलाः कूपात् जलम् उद्धृत्य जलपूर्णं घटं वहन्त्यः गृहं प्रति प्रस्थिताः. तदवसरे पुत्राणां श्रेष्ठताविषये तासां चर्चा आरब्धा. एका अवदत्, मम पुत्रः महाविद्वान् अस्ति, शास्त्रार्थ सभासु भागं गृहीत्वा महापण्डितान् अपि पराजितान् करोति सः. राजस्थाने अपि तस्य विशेष सम्मानः अस्ति। अद्यत्वे सः राजधान्यां निवसति इति।
हा समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे उषा भगिनि।
आं महोदय, तदा अपरा अवदत्, मम पुत्रः अल्पे एव वयसि वाणिज्ये प्रवृत्तः जातः, इदानीं पितुः वाणिज्यं स्वयं निर्वहन् तत् बहुधा विस्तारम् अपि अस्ति तेन प्रतिमासं तस्य आयः वर्धते, नगरे वसता तेन गृहं प्रति आगमनाय अपि समयः न प्राप्यते इति।
हा समीचीनं भगिनि, अस्तु अग्रे तत्र वेदा भगिनि अग्रे।
हा महोदय, किन्तु तृतीया स्वपुत्रविषये किमपि न अवदत्, तदा अन्ये तां पृष्टवत्यौ, भवत्या स्वपुत्रविषये किमपि न उक्तमेव इति। तदा सा तृतीया अवदत्, मम पुत्रः शास्त्रम् अधीतवान्, गृहे एव तिष्ठन् विरामसमये अन्यान् आसक्तान् शास्त्रग्रन्थान् अध्यापयति, पित्रा सह कृषिकार्यं कृत्वा कौशलं प्राप्य अद्यत्वे समग्रं कृषिकार्यं स्वयमेव निर्वहति सः, ग्रामे कस्यचित् अपि कष्टं यदि स्यात् तर्हि तन्निवारणाय झटिति तत्र धावति, शास्त्रे अन्ये जेतव्याः इत्यत्र, प्रभूतं धनं सम्पादनीयम् इत्यत्र च तस्य इच्छा नास्ति इति।
धन्यवादः भगिनि, अस्तु अग्रे शोभा भगिनि।
तावता राजधानीं गच्छन् प्रथमायाः पुत्रः अभिमुखम् आगतः, ताः नमस्कृत्य सः अग्रे अगच्छत्, किञ्चिदनन्तरं द्वितीयायाः पुत्रः अपि अभिमुखम् आगतः, सोऽपि ताः प्रणम्य वेगेन ततः निर्गतवान्, तावता तृतीयायाः पुत्रः तत्र आगत्य भवत्यः एतस्मिन् आतपे किमर्थं घटवहनश्रमं कुर्वन्ति, अहं घटं भवतीनां गृहं प्रापयिष्यामि इति उक्त्वा तासां हस्तात् अनुरोधपूर्वकं घटं स्वीकृत्य अग्रे प्रस्थितवान्।
समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे शुभदा भगिनि।
यदा सः अग्रे अगच्छत् तदा उभे तृतीयाम् उक्तवत्यौ भवत्याः पुत्रः एव श्रेष्ठः, सः न केवलं भवत्याः अपि तु आवयोः अपि भारम् ऊढवान्, आवयोः पुत्रौ तु शिष्टाचारं परिपाल्य आवयोः कष्टविषये अविचिन्त्य अग्रे गतवन्तौ, यः मातापित्रोः अन्येषां च कष्टस्य निवारणे सर्वदा अवधानवान् भवेत् सः एव योग्यः पुत्रः, भवत्याः जीवनमेव धन्यम् इति।
अस्तु, तत्र सर्वे अवगच्छन्ति खलु तत्र कथाम्? अस्तु अस्तु, इदानीं पङ्क्तिशः परिशीलयामः, तत्र नरेश महोदय तत्र आरम्भं करोति वा महोदय?
आं महोदय, कदाचित् तिस्रः महिलाः कूपात् जलम् उद्धृत्य जलपूर्णं घटं वहन्त्यः गृहं प्रति प्रस्थिताः। त्रीणि महिलाः सन्ति,
न त्रीणि न, तिस्रः एव, तत्र त्रीणि इति नपुंसकलिङ्गे भवति, हा, अथवा महिलात्रयम् इति रूपं वक्तुं शक्नुमः।
कूपात् जलं
स्वीकृत्य
घटं
पूरितवन्तः पूरितवत्यः क्षम्यतां पूरितवत्यः
गृहं प्रति
प्रस्थितः गच्छन्ति 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 इति अस्तु किन्तु तत्र प्रस्थिताः प्रस्थिता प्रस्थिताः विशेषणं भवति महिला इति महिलाः प्रस्थिताः गृहं प्रति प्रस्थिताः वहन्त्यः इति वहन्त्यः इति रूपं किं भवति तत्र वहन्त्यः एकवचने किम् अस्ति
वहन्ति
वहन्ती तत्र शत्रन्तरूपम् इति वदामः तत्र गच्छन् इति पुल्लिङ्गे स्त्रीलिङ्गे किम् अस्ति गच्छन्ती इति अस्ति तत्र एकस्मिन् समये कार्यद्वयं यत्र भवति तत्र एकस्य रूपं शत्रन्तरूपं भवति तत्र ते वहन्ति तत्र वहति महिला वहति तस्मिन् एव समये सा गच्छति अपि अतः तत्र महिला वहन्ती आगच्छति अथवा आगच्छति इति अतः तत्र महिलाः वहन्त्यः इति तत्र रूपं भवति तत्र वहन्ती इति विशेषणं भवति वहन्त्यः महिलाः गृहं प्रति प्रस्थिताः जलपूर्णं जलपूर्णम् इति विशेषणमस्ति घटं पदस्य उपात् इति तत्र विभक्तिका पञ्चमी हा कूपात् जलम् उद्धृत्य अस्तु समीचीनं महोदय अग्रे तदवसरे
तस्मिन्
समये
पुत्राणां षष्ठीविभक्ति बहुवचनं श्रेष्ठता विषये तासां चर्चा आरब्धा
हा तत्र चर्चा आरब्धा चर्चा इति अस्ति चेत् तत्र कस्मिन् विषये इति भवति अतः श्रेष्ठता विषये श्रेष्ठः कः श्रेष्ठः अथवा तस्य भावः श्रेष्ठता श्रेष्ठता विषये श्रेष्ठता भावः सुन्दरता श्रेष्ठता योग्यता स्त्रीलिङ्गे स्त्री भावः अस्ति स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति भगिनि अग्रे महोदय तासां तासाम् इति किं भवति
तासां बहुवचनं सप्तमी विभक्ति
षष्टि तत्र पुल्लिङ्गे तेषाम् इति अस्ति सः तौ ते इति तत्र तेषां सा ते ताः तां ते ताः इति तत्र षष्टि बहुवचनं भवति तस्याः तयोः तासां तासाम् इति तासां षष्टि चर्चा आरब्धा अग्रे
एका अवदत् मम पुत्रः महाविद्वान् अस्ति
हा महाविद्वान् महाविद्वान् अस्ति
शास्त्रार्थ सभा सभासु भागं गृहीत्वा महापण्डितान् अपि पराजितवान् करोति सः
पराजितान् करोति सः तत्र महापण्डिताः पराजिताः इति प्रथमविभक्तिरूपं किन्तु कर्मपदं भवति समीचीनं महोदय द्वितीयविभक्ति सत्यम् अतः रूपं महापण्डितः किं भवति महापण्डितान् पराजिताः भवति पराजितान् करोति सः करोति सः तान् पराजितान् करोति तान् महापण्डितान् पराजितान् करोति कुत्र शास्त्रार्थसभासु सभासु इति तत्र वचनं किम् सप्तमी बहुवचनं सभासु लतासु भाषासु सभासु भागं गृहीत्वा तत्र एतान् महापण्डितान् अपि सः पराजितान् करोति मम पुत्रः इति प्रथमा महिला वदति अग्रे महोदय
राजा विशेषसम्मानः अस्ति
तत्र राज्ञः अथवा महाराजस्य आस्थाने अपि तस्य इति तस्य तु तस्य पुत्रस्य कृते विशेषसम्मानः अस्ति हा ते तत्र तस्य सम्माननं कुर्वन्ति तत्र विशेषतया तस्य सम्माननं कुर्वन्ति महाराजस्य आस्थाने अद्यत्वे इत्युक्ते
अद्यत्वे राजधान्यां निवसति इति
इदानीम् अथवा इदानीन्तनकाले अद्यत्वे अथवा तत्र अद्यत्वे नवडेस् इति यत् वदामः तत्र अद्यत्वे सः राजधान्यां निवसति इति प्रथमा महिला वदति समीचीनं महोदय धन्यवादः अस्तु अग्रे गीताञ्जलि भगिनी
महोदय अद्यत्वे अव्यय अस्ति वा अद्यत्वे
प्रायशः
अव्यय
द्रष्टव्यं भगिनि न स्मरामि न स्मरामि भगिनि उत्तमप्रश्नः न स्मरामि गीताञ्जलि भगिनी अग्रे
आं महोदय तदा अपरा अवदत् मम पुत्रः अल्पे एव वयसि वाणिज्ये प्रवृत्तः जातः तदा इति तु अव्ययपदं न महोदय अपरा इत्युक्ते अन्यमहिला अवदतु लं मम पुत्रः अल्पे एव वयसि वाणिज्ये प्रवृत्तः जातः अल्पे तु सप्तमी एव अव्यय वयसि तु मध्यमपुरुष एकवचन
सप्तमी
अल्पे एव वयसि वाणिज्ये प्रवृत्तः जातः
तत्र वाणिज्ये तत्र सः बहु अग्रे गतवान् सः वाणिज्ये सः वणिक् अस्ति तत्र
वणिक् अस्ति वाणिज्ये
प्रवृत्तः जातः निपुणः
जातः निपुणः तु प्रवृत्तः जातः विशेषणः अस्ति
प्रवृत्तः अभवत् सः
अभवत् इदानीं पितुः वाणिज्यं स्वयं निर्वहन् तत् बहुधा विस्तारितम् अपि अस्ति तेन तेन इत्युक्ते पुत्रेण
तेन
पुत्रेण इदानीं पितुः वाणिज्यं
तत्र करोतु भगिनि तत्र निर्वहन् इति तावत्
निर्वहन्
वाणिज्यं स्वयं निर्वहन् निर्वहन् इति कीदृशरूपं
निर्वहन् शत्र
शत्रन्त पठन् इति तादृशरूपं निर्वहति इति प्रथमतया एतत् स्वीकरोतु तत्र पितुः वाणिज्यं स्वयं निर्वहति
निर्वहति
तस्मिन्नेव समये तत्र निर्वहन् इति सः पठति गच्छति पठन् गच्छति इदानीं पठति इति निर्वहति तस्मिन् समये एव तत् इत्युक्ते वाणिज्यं पितुः वाणिज्यं पितुः वाणिज्यं
बहुधा विस्तारितम् अपि अस्ति
तेन इत्युक्ते विस्तारितम् अस्ति विस्तारितमपि अस्ति इत्युक्ते सः तस्य
इत्युक्ते
विस्तारं कृतवान् तत्र
वाणिज्यं यदस्ति
पुत्रः तस्य वाणिज्यं यद् अस्ति तस्य
वर्धनं कृतवान्
बहुधा वर्धनं कृतवान् इति अग्रे
इत्युक्ते महिलायाः पितुः
महिलायाः
पुत्रः
तस्य पितुः इत्युक्ते महिलायाः पतिः
तस्य पितुः अपेक्षया बुद्धिमान् अस्ति
अपि तत्र बहु किमपि तत्र वर्धितवान् तस्य वर्धनं कृतवान्
प्रतिमासं तस्य आयः वर्धते तस्य इत्युक्ते पुत्रस्य आयः वर्धते इत्युक्ते बृहत्
भवति आयः इत्युक्ते आयुः नात्र आदायः यत् तत्र वाणिज्येन यत् रूप्यकाणि इति तत्र तत् तस्य वर्धनं भवति प्रतिमासं तत् सः वर्धते नगरे
वसता तेन गृहं प्रति आगमनाय अपि समयः न प्राप्यते इति
तत्र प्रायशः तत्र नगरे वसता तेन इति तावदेव तत्र गृहं प्रति आगमनाय अपि समयः न प्राप्यते तत्र समयः तत्र समयः न प्राप्यते किमर्थं किमर्थं किं कर्तुम् इत्युक्ते किमर्थम् इत्युक्ते आगन्तुम् अथवा आगमनाय
चतुर्थी आगमनाय इत्युक्ते आगमनार्थं
आगमनार्थमपि
समयः न प्राप्यते
समयः न प्राप्यते
तेन पुत्रेण
तत्र कीदृशपुत्रः सः
नगरे
वसता पुत्रेण किन्तु तत्र प्रथमविभक्तिरूपं किं भवति तेन इति अस्ति तत्र प्रथमविभक्तिरूपं किम् अस्ति तेन पुत्रेण इति सः पुत्रः इदानीं वसता इति तत् किं भवति
नगरे वसति
पठन् अपि निर्वहन् इति अस्ति खलु तदेव नगरे वसन् सः पुत्रः यः अस्ति नगरे वसन् सः पुत्रः यः अस्ति तेन गृहं प्रति आगमनाय अपि समयः न प्राप्यते इति वदति सा तादृशवर्धने एव सः निमग्नः अस्ति तत्र गृहम् आगन्तुमपि तस्य
समयः
नास्ति इति अस्तु
एतत्तु कर्मणि प्रयोगः
सत्यं भगिनि सत्यं समयः तेन न प्राप्यते सः समयं न प्राप्नोति सत्यं भगिनि अस्तु अग्रे तत्र श्रीप्रिया भगिनी अग्रे पठति वा
आं महोदय
किन्तु तृतीया इति
किन्तु तृतीया स्वपुत्रविषये किमपि न अवदत् तृतीया महिला तु किञ्चिदपि न उक्तवती
पुत्रस्य विषये किमपि न उक्तवती
पुत्रस्य विषये किमपि न उक्तवती तदा अन्ये तां पृष्टवत्यौ भवत्या स्वपुत्रविषये किमपि न उक्तमेव इति
भवत्या किमर्थं तत्र न उक्तं भवत्या न उक्तं तत्र कर्मणि रूपं भवती किमर्थं किमपि न उक्तवती तत्र पृष्टवत्यौ इति पृष्टवत्यः समीचीनं भगिनि तत्र तदस्ति तत्र पृष्टवान् इति पुल्लिङ्गे पृष्टवती इति स्त्रीलिङ्गे गतवती गतवत्यौ इति तादृशरूपं हा अग्रे
तदा सा तृतीया अवदत् मम पुत्रः शास्त्रम् अधीतवान्
शास्त्रं जानाति अधीतवान् तत्र शास्त्रं पठितवान् अस्ति
पठितवान्
अस्ति
गृहे एव तिष्ठन् विरामसमये अन्यान् आसक्तान् शास्त्रग्रन्थान् अध्यापयति
सः गृहे एव तिष्ठति
तिष्ठति अन्यान्
स्वतन्त्ररूपं तिष्ठन् तिष्ठन् तिष्ठति तिष्ठन् तस्मिन् समये
तस्मिन् समये विराम यदा विरामसमयः अस्ति तदा सः अन्यान् शास्त्रान् अपि शास्त्राणाम् अपि अध्ययनं करोति इति
न तत्र अन्यान् आसक्तान् तत्र अध्यापयति तत्र पाठयति सः पाठयति पाठयति तत्र शास्त्रान् पाठयति तत्र अध्यापयति इति तत्र प्रायशः तत्र वक्तव्यमस्ति तत्र अध्यापयति इति तत्र क्रियापदं केचन कानिचन क्रियापदानि सन्ति तत्र द्विकर्मकक्रियापदानि इति तत्र किम् अध्यापयति शास्त्रग्रन्थान् अध्यापयति कम् अध्यापयति अन्यान् आसक्तान् अध्यापयति तत्र पृच्छति इति जानीमः खलु प्रसिद्धः अस्ति तत्र प्रसिद्धक्रियापदम् तत्र किं कं पृच्छति शिष्यः गुरुं प्रश्नं पृच्छति तत्र कम् एकमस्ति किम् एकमस्ति पृच्छति क्रियापदम् अतः कर्मपदद्वयम् अस्ति इति कृत्वा तत्र विकर्मक अत्रापि अध्यापयति अन्यान् आसक्तान् अन्याः आसक्ताः ये सन्ति तान् पाठयति अध्यापयति शास्त्रग्रन्थान्
पित्रा सह कृषिकार्यं कृत्वा कौशलं प्राप्य अद्यत्वे समग्रं कृषिकार्यं स्वयमेव निर्वहति सः तस्य पितुः सह पित्रा सह कृषिकार्यमपि कुर्वन् अस्ति कृषिकार्ये कौशलं प्राप्य सः पूर्णकृषिकार्यम् अद्य सः एव निर्वहति
समीचीनं तत्र कृत्वा इति त्वन्तरूपं प्राप्य इति ल्यबन्तरूपम् अद्यत्वे सः समग्रं कृषिकार्यं स्वयमेव निर्वहति सः अतः तत्र पितुः आवश्यकता इदानीं नास्ति एषः एव स्वयमेव सर्वं कर्तुं शक्नोति अग्रे
महोदय कुशलस्य भावम् एव कौशलं
समीचीनं भगिनि सत्यं तत्र कुशलता कौशल्यं कौशलम् अपि कुशलत्वम् इति अपि अस्ति इति मन्ये
ग्रामे कस्यचित् अपि कष्टं यदि स्यात् तर्हि तत् निवारणाय झटिति तत्र धावति यस्य कस्यापि ग्रामे यस्य कस्यापि कोऽपि कष्टम् अनुभवति चेत् सः तेषां साहाय्यार्थं गच्छति शास्त्रे अन्ये जेतव्याः
प्रश्नः महोदय
वदतु भगिनि
कष्टं यदि स्यात् तर्हि तन्निवारणाय
तत् कष्टं निवारणाय इति तत्र सन्धिकार्यं भवति तन्निवारणाय इति
धातु अस्ति वा महोदय तत्र
न तत् निवारणाय तत् कष्टं निवारणाय
लेप्रत्यय अस्ति
निवारणाय
चतुर्थी
निवारणाय तत् कर्तुं निवारणार्थं
प्रातिपदिकं किम् अस्ति
निवारणम् इति
धन्यवादः अनुनासिकसन्धि भवति किल महोदय
सत्यं तत् निवारणं तन्निवारणं सत्यं भगिनि एकमेव वाक्यं कुर्मः अस्मिन् परिच्छेदे तदनन्तरं विरमामः भगिनी अग्रे तत्र शास्त्रे अन्ये जेतव्याः
शास्त्रे अन्ये जेतव्याः इत्यत्र प्रभूतं धनं सम्पादनीयम् इत्यत्र च तस्य इच्छा नास्ति
तत्र तस्य इच्छा नास्ति कुत्र नास्ति कस्मिन् विषये तस्य इच्छा नास्ति
धनसम्पादनार्थं तस्य इच्छा नास्ति
हा तत्र प्रभूतं धनं सम्पादनीयम् इति अत्र तस्य इच्छा नास्ति अपि शास्त्रे अन्ये जेतव्याः अस्तु एषः महापण्डितः तं पण्डितम् अहं तत्र तस्य पराजयं करणीयम् इति तादृशचिन्तनं तस्य नास्ति एषः जेतव्यः इति तत्र तादृशचिन्ता तस्य नास्ति शास्त्रे मम निपुणता अधिकम् अधिकः मम निपुणता अधिका अस्ति इति तत्र तस्य प्रदर्शनं वा अथवा मम प्रभूतं धनम् अस्ति तत्र अहं सम्पादितवान् इति तद् वक्तुं वा तस्य इच्छा नास्ति इति तावत् जेतव्यः तत्र कर्तव्यः
कर्तव्यः
विशेषणं भवति तत्र अन्यः जेतव्यः कार्यं कर्तव्यं पुस्तकं पठितव्यं वृक्षः द्रष्टव्यः इति अस्तु अस्तु समयः जातः किन्तु एकः एव परिच्छेदः न परिच्छेदद्वयम् अस्ति अग्रिमे वर्गे पठामः अस्तु तर्हि तत्र अन्ते तत्र प्रार्थना इति उक्त्वा विरमाम तत्र शिवभगिनी वदति वा
आम् महोदय पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः
धन्यवादः भगिनी सर्वेभ्यो नमः धन्यवादः
धन्यवादः
महोदय
नमस्कारः